इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। रक्षामन्त्री राजनाथ सिंहः हिन्दुस्तान एरोनॉटिक्स लिमिटेड संस्थायाः नासिक उत्पादनान्वितौ निर्मितस्य प्रथम तेजस एलसीए एमके वन्ने युद्ध विमानस्य अनावरणम् अकरोत्। प्रोक्तवान् यत् एतेषां विमानानां उड्डयनं रक्षाक्षेत्रे आत्मनिर्भरतायाः उड्डयनस्य प्रतीकमस्ति। गुजरात सर्वकारेण अद्य नूतन मन्त्रिमण्डलस्य घोषणा कृता। अत्रावधौ हर्षवर्धन संघवीत्यनेन उपमुख्यमन्त्री पदस्य शपथं स्वीकृतम्। छत्तीसगढ़स्य जगदलपुरे 10,200 नक्सलवादिनः आत्मसमर्पणम् अकुर्वन्। अपि च सर्वोच्चन्यायालयेन डिजिटल निगण्डन वञ्चनायां केन्द्रा तथा केन्द्रीय अन्वेषण विभागाच्च उत्तरम् अर्थितम्। अथ वार्ताः विशदीकृत्य। रक्षामन्त्री राजनाथ सिंहः हिन्दुस्तान एरोनॉटिक्स लिमिटेड संस्थायाः नासिक उत्पादनान्वितौ निर्मितस्य प्रथम तेजस एलसीए एमके वन्ने युद्ध विमानस्य अनावरणम् अकरोत्। अत्रावसरे रक्षामन्त्रिणा एसटीटी 44 प्रशिक्षु विमान निर्माण कर्तृ समवायस्यापि शुभारम्भः कृतः। श्रीसिंहेन नासिक विभागे निर्मितानां सुखोई 30 एलसीए एसटीटी 44 विमानानां प्रशंसा कृता। सहैव प्रोक्तं यत् एतेषां विमानानां उड्डयनं रक्षाक्षेत्रे आत्मनिर्भरतायाः उड्डयनमस्ति। रक्षामन्त्रिणा रक्षोत्पादने आत्मनिर्भरतायाः लक्ष्यप्राप्त्यर्थं सर्वकारस्य प्रतिबद्धता पुनरुच्चारिता। तेनोक्तं यत् देशस्य संकल्पः अस्ति यत् सर्वाणि रक्षोपकरणानि देशे एव निर्मितानि स्युः।
कैंपस, मैं मानता हूं कि एक महज केवल एक इमारत या किसी प्रोजेक्ट तक ही सीमित नहीं है, बल्कि रक्षा क्षेत्र में भारत की आत्मनिर्भरता को भी सिंबलाइज करता है, उसका प्रतीक है। जब मैं आत्मनिर्भरता की बात कर रहा हूं, तो मेरे जेहन में वह पूरी यात्रा भी चल रही है जिसकी शुरुआत हमने 2014 से की है, और आप सबने तो डिफेंस सेक्टर में भारत की बदलती भूमिका को साफ साफ अपनी नंगी आंखों से देखा है। एक समय था जब देश में रक्षा की जरूरतों को पूरा करने के लिए अन्य देशों पर हमारा देश निर्भर था, और लगभग 65-70% डिफेंस इक्विपमेंट इंपोर्ट किए जाते थे। लेकिन आज स्थिति बदल चुकी है, अब भारत 65% मैन्युफैक्चरिंग अपनी ही धरती पर कर रहा है।
एतत् तेजस विमानस्य उन्नतम् संस्करणमस्ति, यस्मिन् उत्कृष्ट युद्ध एवियोनिक्स तन्त्रम् तथैव आकाशे एव इन्धनपूरणस्य क्षमताम् समेत्य नैके महत्वपूर्ण परिष्काराः कृताः। एतत् विमानम् तावत् बहुद्देश्यात्मकम् युद्धविमानमस्ति, यश्च वायुरक्षायाम्, भूम्याक्रमणे, सामुद्रिक आक्रमणे च सक्षमम् अस्ति। भाजपा नेतृत्वयुतेन सर्वकारेण अद्य नूतन मन्त्रिमण्डलस्य घोषणा कृता। हर्षवर्धन संघवी इत्यनेन राज्यस्य उपमुख्यमन्त्री रूपेण शपथं स्वीकृतम्। गुजरातस्य राज्यपालः आचार्य देवव्रतः अद्य गांधीनगरस्य महात्मा मन्दिरे आयोजिते समारोहे 21 मन्त्रिभ्यः पदस्य गोपनीयतायाः च शपथं प्रदत्तवान्। अस्मिन् समारोहे प्रधानमन्त्री नरेन्द्र मोदी, भारतीय जनता पार्टीति दलस्य अध्यक्षः जेपी नड्डा च उपस्थितौ आस्ताम्। नूतनमन्त्रिषु एकः उपमुख्यमन्त्री, पञ्च मन्त्रिमण्डलीय मन्त्रिणः, त्रयः स्वतन्त्र प्रभारयुक्ताः राज्यमन्त्रिणः, 12 राज्यमन्त्रिणः च सन्ति। अस्माकं वार्ताहरः विज्ञापितवान् यत् नूतने मन्त्रिमण्डले रीवा बा जडेजा सहैव त्रयः वरिष्ठ नेतारश्च सन्ति। एकस्मिन् प्रमुखे राजनैतिक घटनाक्रमे मुख्यमन्त्रिणं भूपेन्द्र पटेलं विहाय सम्पूर्ण राज्यमन्त्रिमण्डलेन गतदिने त्यागपत्रम् प्रदत्तम्। अद्य छत्तीसगढ़स्य बस्तर विभागस्य मुख्यालये जगदलपुरे 200+ नक्सलवादिनः आत्मसमर्पणम् अकुर्वन्। एतैः नक्सलवादिभिः 29 AK-47 भुशुण्डिकाः, 17 SLR तथैव 53-100 शस्त्रैः सह समर्पणम् कृतम्। अधिकारिणां मतानुसारम् एते प्रतिबन्धितस्य CPI समूहस्य विभिन्नेषु पदेषु प्रतिनिधयः आसन्। वार्ताहरैः सह संवादं कुर्वन् छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवः साई अवदत् यत् तेषां पुनर्वासार्थं तथा कौशलविकासाय च सर्वकारः विभिन्नान् कल्याणयुतान् उपायान् प्रकल्पयति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। सर्वोच्चन्यायालयेन डिजिटल निगडन वञ्चनायां केन्द्रा तथा केन्द्रीय अन्वेषण विभागाच्च उत्तरमर्थितम्। सर्वोच्चन्यायालयेन डिजिटल निगडन वञ्चनायाः वर्धमानानां प्रकरणानां विषये स्वतः संज्ञानं स्वीकृतम्, यत्र वञ्चनाधिकारिणः विधि प्रवर्तन संस्थानां न्यायाधिकारिणां च प्रतिरूपं धृत्वा नागरिकेभ्यः विशेषतः वरिष्ठ नागरिकेभ्यश्च धनं वञ्चितुं प्रयतन्ते। हरियाणाराज्यस्य अम्बालायाः एकस्याः 73-वर्षीय महिलायाः परिवादस्य आधारेण एतत् कार्याचरणं जातम्। सा अभियोगं कृतवती यत् वञ्चनाधिकारिणः सर्वोच्चन्यायालयस्य मिथ्यादेशान् उपयुज्य तां तथा कथिते डिजिटल बन्धने गृहीत्वा 1 कोटि रूप्यकाणि अपहृतवन्तः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्याम् आदिकर्मयोगी अभियानम् इति विषयेण संवलिते राष्ट्रिय सम्मेलने भागम् अभजत्। जनजातीय कार्यमन्त्रालयः विकसित भारतस्य दृष्टिकोणान्तर्गतम् एतस्य सम्मेलनस्य आयोजनं कृतवान्। सम्मेलनमिदं प्रधानमन्त्री जनमन इत्यस्य तथैव जनजातीय आवाभियानस्य संयोजनेन आयोजितम्। एतत् सम्मेलनं जनजातीय ग्राम विजन 30+2000 विषये विचारादारभ्य कार्यान्वयनपर्यन्तं केन्द्रितं वर्तते। अस्य कार्यक्रमस्य प्रमुखम् आकर्षणं जनजातीय ग्राम विजन 30+2000 इति संकल्पनायाः निर्माणं भविष्यति। सहैव अस्योद्देश्यं तावत् नीतिगत परामर्शेभ्यः अन्तिमरूप प्रदानम् इत्यस्ति। अत्रावसरे राष्ट्रपतिना प्रोक्तं यत् प्रत्येक आदिवासी ग्रामाणाम् आत्माश्रयार्थम् एतत् कर्मयोगी अभियानं प्रचालितम्।
आदि कर्म योगी अभियान इस परिवर्तनकारी सोच के साथ शुरू किया गया है कि प्रत्येक आदिवासी गांव आत्मनिर्भर और स्वाभिमानी बने। इस अभियान के माध्यम से यह सुनिश्चित करना है कि राष्ट्र के विकास की यात्रा में आदिवासी समुदाय की भी भागीदारी हो और विकास का लाभ भी सभी आदिवासी क्षेत्रों और लोगों तक पहुँचे।
मिस्रस्य विदेशमन्त्री डॉ बद्र अब्देलती इत्येषः अद्य प्रधानमन्त्रिणा नरेन्द्र मोदिना सह मिलितवान्। प्रधानमन्त्रिणा गाजायां शान्तिसन्धौ मिस्रस्य महत्वपूर्ण भूमिका प्रशंसिता। श्रीलंकायाः प्रधानमन्त्री डॉ हरिणी अमरसूर्या इत्येषा अद्य नवदिल्ल्यां प्रधानमन्त्रिणा नरेन्द्र मोदिना सह मिलितवती। श्रीमोदिना तस्याः भव्यं स्वागतं कृतम्। सहैव प्रोक्तं यत् तस्याः यात्रा भारत श्रीलंका देशयोः सम्बन्धान् नूतन गतिं प्रदास्यति। भाजपा दलस्य वरिष्ठ नेता केन्द्रीय गृहमन्त्री अमित शाहः अद्य बिहारस्य सारण जनपदे दलस्य निर्वाचन प्रचारमारब्धवान्। तेन तरैया विधायकाय जनसिंहाय सहैव अमनौर प्रत्याशिने कृष्ण कुमार मण्ट् इत्यस्मै च समर्थनं संगृहीतम्। सारण जनपदस्य तरैया नगरे जनसभां सम्बोधयन् श्रीशाहः विगत दशकद्वये राज्ये विधि व्यवस्थायाः पुनःस्थापनार्थं मुख्यमन्त्री नीतीशकुमारस्य प्रशंसाम् अकरोत्। सः गत 11 वर्षेष् प्रधानमन्त्रिणः श्रीमोदिनः योगदानम् अधोरेखितवान्। तथैव सः सबलं प्रावोचत् यत् एनडीए पक्षः नीतीशकुमारस्य नेतृत्वे निर्वाचने युध्यति। सः सिन्दूराभियानम् आतंकं विरुध्य प्रमुखं कार्याचरणम् आसीत् इत्यपि वर्णितवान्। गतदिने श्रीशाहः बिहारस्य मुख्यमन्त्रिणा नीतीशकुमारेण सह पटनानगरे तस्य निवासस्थाने मेलनं कृतवान्। बिहार विधानसभायाः निर्वाचनं नवम्बर मासस्य 6 दिनांके, नवम्बर मासस्य 11 दिनांके च द्वयोः चरणयोः भविष्यति। परिणामस्य घोषणा तावत् नवम्बर मासस्य 14 दिनांके भविष्यति। बिहार निर्वाचनायोगेन आगामि बिहार विधानसभा निर्वाचनेष् धनराशेः मादकपदार्थानां मद्यस्य अन्यप्रलोभनानां नयनानयन निवारणाय अद्य प्रवर्तनाभिकरणस्य प्रमुखैः सह एकम् उपवेशनं कृतम्। नवदिल्ल्याः निर्वाचनसदने उपवेशनावधौ मुख्य निर्वाचनायुक्तेन ज्ञानेश कुमारेण निर्वाचनाधिकारिभ्यां डॉ सुखबीर सिंह संधु तथैव डॉ विवेक जोशी इत्येताभ्यां च सह निर्वाचनकाले सक्रियतां निवारक कार्याचरणञ्च अनुष्ठातुम् आरक्षक प्रवर्तनाभिकरणानां दायित्वं स्मारितम्। आयोगेन एकस्मिन् वक्तव्ये कथितं यत् विभिन्नाभिकरणैः आयोगाय स्वस्य सज्जतायाः तथा प्रलोभनमुक्त निर्वाचनार्थम् उत्थापित पदक्षेपाणां विषये सूचना दत्ता। निर्वाचनदूषणाय धनस्य तथा अन्यप्रलोभनानां निवारणाय सम्बन्धविस्तृतविषयाणां संक्षेपणमपि अभवत्। इति वार्ताः।